एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सर्वकारेण राष्ट्रिय सभायाः शीतकालिकाधिवेशनस्य पौषस्य सप्तदशे दिवसे आह्वानाय राष्ट्रपतेः समक्षम् परामृष्टम् निर्णीतम् वर्तते। मन्त्रिपरिषदः परैः उपविष्टेन उपवेशेन शीतकालिकाधिवेशनस्य पौषस्य सप्तदशे दिवसे शुक्रवासरे आह्वानाय राष्ट्रपतिम् परामृष्टम् निर्णीतमिति परराष्ट्रमन्त्री प्रदीप कुमार ग्यावाली अज्ञापयत्। प्रथम प्रदेशस्य मुख्यमन्त्रिणा शेरधन राई इत्यनेन आर्थिक विषय योजना मन्त्री इन्द्रबहादुर आङ्गो ह्य पदमुक्त वीतो वर्तते। नेपालस्य संविधानस्य अनुसारेण प्रदेश सर्वकारस्य मन्त्री आङ्गो पदमुक्तो विहित इति मुख्यमन्त्रिणा संचार परामर्शदाता ध्रुव सुवेदी अबोधयत्। ह्य आराष्ट्रम् अष्टौशतम् चत्वारिंशत् जना कोरोना संक्रमणात् मुक्ता वर्तन्ते। एतदनु ह्यस्तनावधि नेपाले कोरोना संक्रमणात् मुक्तानां जनानां समग्र संख्या लक्षद्वयम् उनपञ्चाशत् सहस्राणि द्वात्रिंशत् अधिकैक शतं च प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। मन्त्रालयस्य तथ्याङ्कानाम् अनुसारेण ह्यस्तनावधि आराष्ट्रं प्रतिशतं 0.7 जना कोरोना संक्रमणात् मुक्ता सन्ति। ह्य अतिरिक्तेषु पञ्चशते जनेषु कोरोना संक्रमणं पुष्टिभूतं वर्तते। पञ्चसहस्राणां चतुस्त्रिंशद् अधिक शतचतुष्टयस्य च निदर्शनानां पीसीआर विधिना परीक्षणं विहितं सद् 87.2% पुरुषेषु 13.2% महिलासु च संक्रमणं पुष्टिभूतमिति मन्त्रालयेन ज्ञापितं वर्तते। एतदनु नेपाले कोरोना संक्रान्तानां जनानां समग्र संख्या लक्षद्वयं 750.7% च प्राप्तेति मन्त्रालयेन ज्ञापितमस्ति। ह्यस्तनावधि आराष्ट्रं 60.7% सक्रिय संक्रान्ताः जनाः वर्तन्ते। तेषु 43.7% जनाः गृहकान्तवासेषु वर्तन्ते। कोरोना संक्रमणेन ह्य अतिरिक्तस्य जनत्रयस्य मृत्योः पश्चात् ह्यस्तनावधि कोरोना संक्रमणेन नेपाले मृतानां जनानां समग्र संख्या 1029% प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितमस्ति। कञ्चनपुरस्य वेदकोट नगरपालिकायाः कर्मचारीषु स्थानीयेषु च कोरोना संक्रमणस्य दर्शनमनु नगरपालिका अद्यतः सप्ताहाय पिधाप्यते। नगरपालिका पौषस्य द्वादश दिवसात् 18 दिवसं यावत् पिधाप्यते। एतदवधौ कार्यालयात् अत्यावश्यकी सेवा एव प्रदास्यते इति नगरपालिकायाः प्रमुख प्रशासकीयाधिकृतः पदमराजभट्टः अबोधयत्। संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ निगदति उच्चैः नैतिकतया निष्ठया च कार्य सम्पादनेनैव प्रत्येकं क्षेत्रे सफलता प्राप्यते। रत्न धर्म स्मृति प्रतिष्ठानेन गतदिने काष्ठमण्डपे आयोजिते कार्यक्रमे संचार मन्त्री गुरूङ मानवीय सेवाया समाजसेवायाश्च कार्येषु समर्पणेन संलग्नाः भवितुं सामाजिक संघ संस्थाः अन्वरुणत। कार्यक्रमे मन्त्री गुरूङ शैक्षिकाभियान कर्मिणा डीबी खड्गा विदेन लिखितौ कविता संग्रहं स्वानुभूति संयोजितं निबन्ध संग्रहं च व्यमुञ्चत। नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवाभिदेन सर्वकारस्य परामर्शने प्रतिनिधि सभाया विघटनस्य विरूद्धे नेपाली कांग्रेस दलेन स्व आयोक्ष्यमाणे प्रदर्शने सहभागितायै सर्वे अनुरुद्धाः सन्ति। सभापतिना देउवाभिदेन ह्य अनुरोध पत्रं प्रकाशयता दलस्य सदस्याः शुभचिन्तकाः सर्वे लोकतन्त्रवादिनश्च विरोध प्रदर्शने ऐक्यबद्धतां प्रकटयितुम् अनुरुद्धाः सन्ति। आगामिषु कतिचित् दिवसेषु आराष्ट्रं तापक्रमस्य निरन्तरं न्यूनीभवनस्य सम्भावना स्थिति जलवायु विज्ञान विभागो ज्ञापयति। काष्ठमण्डपु उपत्यकाया तापक्रम ह्य अस्य वर्षस्यैव अधिकतम शैत्यसूचक 0.3°C परिमाणेन मापितः। इतोपि न्यूनतम तापक्रम 0° परिमाणं यावत् प्राप्स्यतीति जलवायुविदो वदन्ति। जलवायु विज्ञान विभागेन ह्य सूचनां प्रकाश्य शैत्यं यथावत् तिष्ठति एवं तराई पर्वतीय क्षेत्रयो भूभागानां कतिचित् स्थानेषु प्रातः कुहेर्याः कुहरस्य च कारणेन वायोः पारदर्शितायाः न्यूनतायाः हेतोः मार्गस्य विमानमाध्यमस्य च यातायातं प्रभावितं भवितुं शक्ष्यतीति हेतोः आवश्यक सावधानताम् अवलम्बितुं सर्वे अनुरुद्धाश्च सन्ति। प्रसिद्ध तीर्थस्थलस्य पाथीभरा मन्दिर क्षेत्रस्य सामुदायिक वने अग्निदाह तुरापन्नोस्ति। फुङलिङ नगरपालिकाया फावा खोला स्थानवर्तिनी सिम्बु सामुदायिक वने दिनत्रयात् अग्निदाह तुरापन्नो वर्तते। अग्निदाहस्य नियन्त्रणाय ह्य प्रातः जनपद मुख्यालयात् नेपाल प्रहरिण 20 नेपाली सेनाया 30 सशस्त्र प्रहरिण 15 च जना तत्र क्षेत्रे प्रस्थिता सन्तीति प्रमुख जनपदाधिकारी झरेन्द्र प्रसाद चापागाई अज्ञापयत। स्थानीयवासिनश्च अग्निदाहस्य नियन्त्रणाय तत्र क्षेत्रे प्राप्ता सन्ति। अग्निदाहस्य स्थलस्य भृगौ सत्वात् नियन्त्रणाय काठिन्यम् सम्भूतम् वर्तते इति प्रमुख जनपदाधिकारी चापागाई अबोधयत। चीन भारतयोः योजकस्य राष्ट्रिय गौरवस्य काली गण्डकी तटीय मार्ग निर्माण योजनायाः बागलुङ खण्डस्य विस्तारणस्य कार्यम् अन्तिम चरणे प्राप्तमस्ति। आयोजनायाः बागलुङ खण्डस्य अन्तर्गतम् बलेवा विमानस्थलात् जैमिनी स्थानस्य पालुङखोला क्षेत्रस्य मार्गस्य 10 मीटर मित विस्तारणस्य कार्यम् 80% समाप्तमस्ति। कोरोना महामार्याः कारणेन पिधापनस्य समयेऽपि कार्याय नैरन्तर्यम् प्रदत्तवत्या नेपाली सेनया आगामिनो ज्येष्ठ मासस्य 15 दिवसम् यावत् आयोजनायाः हस्तान्तरणत्वेन कार्यम् विधीयमानमस्तीति ज्ञापितम् वर्तते। कोरोना संक्रमणस्य पुष्टेः कारणात् द्वादशकक्षायाः वञ्चित परीक्षेभ्यो विद्यार्थिभ्यः राष्ट्रिय परीक्षा समित्या अस्यैव पौषस्य 16 दिवसे परीक्षा सञ्चालयिष्यते। परीक्षा समित्या ह्य सूचनां प्रकाश्य पौषस्य 16 दिवसात् 23 दिवसं यावत् सञ्चालयिष्यमाणाः परीक्षायाः तालिका सार्वजनीकृता वर्तते। समितेः अनुसारेण निर्धारित स्वास्थ्य सुरक्षा सम्बद्धान् मापदण्डान् सामाजिक दूरीञ्च पालयित्वा पूर्वाह्नस्य 10 वादनात् सार्धैकादशवादन पर्यन्तं सम्बद्ध विद्यालयेषु एव परीक्षा सञ्चालयिष्यते। मोरङ जनपदस्य रंगेली नगरपालिकाया अष्टमवडा क्षेत्रवर्तिनो दरवेशा स्थानात् 17-17 सहस्राणां भारतीय कृत्रिम प्रपत्रीय मुद्राभि सह जनद्वयं प्रहरिणानि गृहीतं वर्तते। भारतात् नेपालम् आगच्छतो मोटर साइकल यानस्य अनुसन्धानस्य क्रमे भारतीय कृत्रिम प्रपत्रीय मुद्राभि सह चोप्रावासी 30 वर्षीय कुन्दन मण्डल भारतस्य 18 वर्षीय किशोरश्च शुक्रवासरे सायं प्रहरिणानि गृह्य सार्वजनिक प्रहरेण अनुसारेण मण्डलात् 102 अङ्कानां 4,000+ किशोरात् च 7 अङ्कानां 7,000+ च रूप्यकाणि अधिगृहीतानि सन्ति। हेटौडा स्थाने गतदिने बसयानं दुर्घटितं सत् एको मृत 8 जना आहताश्च सन्ति। हेटौडा स्थानात् नारायणगढ स्थानाय प्रस्थीयमानं यात्रीवाहक बसयानम् अनियन्त्रितं भूत्वा हेटौडोपमहानगरपालिकायाः 29 वडा क्षेत्रे दुर्घटितं सद् लमजुङ जनपदस्य सुन्दर बजार नगरपालिकायाः 8 वडा क्षेत्रस्य 32 वर्षीय हरिगौली मृता इति मकवानपुर जनपद प्रहरी कार्यालयो ज्ञापयति। आहताः जना चुरे हिल चिकित्सालय उपचार्यमाणाः सन्ति। स्याङ्जा जनपदवर्तिना सिद्धार्थ राजमार्गस्य जाँडखोला स्थाने ह्यो बस ट्रक यानयोः परस्परं संघटितयोः सतोः 6 जनाः आहताः सन्ति। पोखरातो बालिङ स्थानाय आगच्छति ट्रक याने पर्वत जनपदस्य फोक्सिङ स्थानात् पोखराय प्रस्थीयमाने ट्रक याने च परस्परं संघटितयोः सतोः 6 जनाः आहताः इति स्याङ्जा जनपद प्रहरी कार्यालयो ज्ञापयति। आहताः सर्वे उपचाराय स्याङ्जा जनपद चिकित्सालय प्रापिताः सन्ति इति स्याङ्जा जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षकः राजेन्द्र प्रसाद अधिकारी अबोधयत। एवमेव झापा जनपदस्य कमलग्रामपालिकायाः 5वडा क्षेत्रस्थिते मार्गखण्डे टाटा सुमो यानेन प्रहरितं सत् साइकल यान यात्री मृत्यु वर्तते। पूर्व पश्चिम राजमार्गस्य अन्तर्गते लवडाडा स्थाने ह्य टाटा सुमो यानेन साइकल यान यात्रिणी प्रहरिते सति 53 वर्षीय झूलानाथ खनालः मृत्युस्थिति दमक स्थानीय प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षकः विजयराजपण्डितः अज्ञापयत। इति समाचारः।